एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति वर्तमान सर्वकारेण देशे आर्थिक समृद्धिः अधिगमिष्यते एव। नेपाल प्रज्ञा प्रतिष्ठाने ह्य आयोजितम् एतत् विक्रमवर्षीयम् सिस्नोपानी देउसी कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री ओली सर्वकारः देशस्य विकासस्य आर्थिक समृद्धेश्च दिशि अग्रे वर्धमानोऽस्तीति उदैरयत्। प्रधानमन्त्री ओली कस्यचिद् आलोचनम् समालोचनम् च सत्यतायम् स्थित्वा सभ्यम् मर्यादित भाषायाम् विहितम् सद् तत्र नेपाली सभ्यता संस्कृतिश्च प्रतीते भवतः इति प्रत्यपादयत्। तदवसरे प्रधानमन्त्री ओली सर्वेभ्यो नेपाली नागरिकेभ्य शुभ दीपावल्याः यमपञ्चक पर्वणश्च हार्दिम शुभकामनाम् च व्यक्तवान्। प्रधानमन्त्री केपी शर्मा ओली साफ महिला च्याम्पियनशिप पादकन्दुक स्पर्धायाम् उपविजेत्री सम्भूतस्य महिला नेपाली क्रीडक समूहस्य प्रत्येकं सदस्येभ्य त्रीणि लक्ष्याणि रूप्यकाणि पुरस्कार स्वरूपेण प्रदातुम् उद्घोषयति। बाल्वाटारावर्तिनी प्रधानमन्त्री निवासे ह्य राष्ट्रिय महिला पादकन्दुक क्रीडा समूहस्य क्रीडकैः सह मेलनस्य क्रमे प्रधानमन्त्री ओली क्रीडाक्षेत्रस्य विकासाय क्रीडकेभ्य प्रोत्साहनाय च कथंविदापि न्यूनता न विधीयते इति समस्पष्टयत। तदवसरे प्रधानमन्त्री ओली बंगलादेशस्य विरूद्धे उत्कृष्टं प्रदर्शनं विहितमिति चर्चयन् आगामिनि सप्तमे संस्करणे क्रीडां विजेष्यामः इति भावनया क्रीडायां प्रवर्तनाय नेपाली महिला पादकन्दुक क्रीडकान् अन्वरुणत। अद्य कार्तिक कृष्ण पक्षस्य अमावस्या तिथि सम्प्रति यमपञ्चक पर्व सञ्चलदस्ति। ह्य सायं यमपञ्चक पर्वण अन्तर्गतम् लक्ष्मीपूजा दीपावली च सम्पादिता। श्वः शनिश्चरवासरे गौपूजा गोवर्धन पूजा बलिपूजा महपूजा नेपाल सम्वतः प्रारम्भ दिवसश्च सन्ति। त्यतः अद्यापि यमपञ्चक पर्वण अन्तर्गतम् सर्वकारेण आराष्टम् सार्वजनिकावकाशः प्रदत्तोऽस्ति। परश्वः रविवासरे नेपालीनाम् द्वितीय महतः यमपञ्चक पर्वणः अन्तर्गतम् भातृटीका यमद्वितीया पर्वोऽस्ति। इत्यतः सर्वेऽपि नेपालिनः सम्प्रति यमपञ्चक पर्वणः हर्षोल्लासमय वातावरणे सन्ति। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः अमेरिकादेशे सम्पन्ने विश्वकोषागार समूहस्य अन्तर्राष्ट्रिय मुद्रा कोषस्य च वार्षिकोपवेशे सहभागी भूत्वा ह्य स्वदेशं प्रत्यागतोऽस्ति। विश्वकोषागार समूहस्य अन्तर्राष्ट्रिय मुद्रा कोषस्य च उपवेशे अर्थमन्त्री पौडेलः जलवायु वित्त क्षेत्रे सहयोगस्य परिचालनाय संस्थापितस्य विश्वव्यापी वित्तीय कोषस्य परिचालनस्य प्रणालीं सरलां प्राप्तियोग्यां च विधातुं विश्व समुदायम् अनुरोधवान् अस्मि इति प्रावोचत। अर्थमन्त्री पौडेलः उपवेशे जलवायु न्यायस्य कृते विकास सहकारी राष्ट्राणि सम्पूर्णान्तर्राष्ट्रिय समुदायम् च दायित्ववायिनः संवेदनशीलाश्च भवितुम् अनुरोधेन सह जलवायु न्यायस्य कृते संस्थापितम् हानि क्षतिपूर्ति कोषम् प्रभावकारितया सञ्चालयितुम् अनुरुद्धवान् आसीत्। अर्थमन्त्री पौडेलः नेपालेन अग्रेसारितम् विषयम् प्रति अन्तर्राष्ट्रिय समुदायः अनुकूलोऽस्तीति असूचयत्। राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः भासते शिक्षा सम्बद्धस्य अधिनियमस्य निर्माणस्य पश्चात् शैक्षिक क्षेत्रे दृष्टानाम् समस्यानाम् विकृतेश्च समाधानम् भविष्यति। काष्ठमण्डपस्य शंखरापुर नगरपालिकायाः षष्ठवडा क्षेत्रस्य भाग्योदय माध्यमिक विद्यालयस्य पञ्चसप्ततितमम् वार्षिकोत्सव कार्यक्रमम् सम्बोधयन् अध्यक्षो दाहालः शैक्षिक क्षेत्रस्य समस्यां समाधातुम् राजनीतिक दलैः विशेष भूमिका निर्वहणीयेति अगदत्। अध्यक्षो दाहालः सर्वैर्मिलित्वा शिक्षणवृत्ति सम्मानितवृत्तेः रूपेण विकसनीयेति बलम् प्रादात्। स्वास्थ्य जनसंख्या मन्त्रालयेन नेपाले प्रसूति सेवायाः प्रदायकेषु सर्वेषु संघीय चिकित्सालयेषु लब्धजन्मनाम् बालबालिकानाम् प्रमुख स्वास्थ्य समस्यानाम् परीक्षणम् अनिवार्यम् विधातुम् निर्णीतमस्ति। स्वास्थ्य मन्त्री प्रदीप पौडेल प्रसूति सेवाया प्रदायकेषु समेषु संघीय चिकित्सालयेषु अपाङ्गता सहितानां चतुर्णां प्रमुख स्वास्थ्य समस्यानां परीक्षणम् अनिवार्यं विधातुं मन्त्रिस्तरीयं निर्णयम् अकरोत्। जन्मना सहैव ज्ञातुं शक्याभ्य अपाङ्गता सहित प्रमुख स्वास्थ्य समस्याभ्य बालबालिकानां रक्षणस्य विश्वासेन एवं निर्णीतमस्तीति मन्त्रिण पौडेलस्य सचिवालयेन ज्ञापितं वर्तते। अनेन निर्णयेन सहैव विशिष्टकृत मातृ शिशु चिकित्सालयेषु परोपकार कान्ति बाल सहितेषु प्रसूति बाल बालिकोपचार सेवा प्रदायकेषु चिकित्सालयेषु लब्धजन्मनाम् बालबालिकानाम् रक्तस्य माध्यमेन अपाङ्गता सम्बद्ध रोगेण सह थायराइड नामाख्यस्य रोगस्य परीक्षणम् भविष्यति। तथैव श्रवण क्षमतायाः दृष्टेः पीतरोगस्य च परीक्षणम् एतेषु चिकित्सालयेषु भविष्यतीति स्वास्थ्य मन्त्रालयस्य प्रवक्ता प्रकाश बुढाथोकी अज्ञापयत्। सम्प्रति विश्वस्मिन् विश्वे प्रतिशतं षट्सु बालबालिकासु जन्मनाशैव अपाङ्गतायाः समस्या दृश्यमानास्ति। वातावरणविदः यमपञ्चक पर्वणि मनोरञ्जन प्रदायकानां विस्फोटक पदार्थानां विस्फोटनेन वायोः ध्वनेश्च प्रदूषणं वर्धते इति वदन्ति। मनोरञ्जन प्रदायकानां विस्फोटक पदार्थानां विस्फोटनेन विभिन्न रासायनिक पदार्थानां यथा सल्फर डाइअक्साइड नाइट्रोजन अक्साइड कार्बन मोनोअक्साइड चेति विषाक्त वायुनां धूलिका कणानां च प्रसरणं भवति। त्यतः प्रदूषणवर्धकानां एतेषां विस्फोटक पदार्थानां प्रयोगसमये सावधानताम् अवलम्बितुं वातावरणविद्भिः अनुरुद्धमस्ति। वातावरणविद् भूषण तुलाधर विस्फोटक वस्तुनां विस्फोटनेन विषाक्त वायोः प्रसरणेन वायुः प्रदूषितो भवति, श्वास प्रश्वास सम्बद्धाः समस्याः उत्पद्यन्ते चेति भासमाणः विस्फोटक पदार्थानां माध्यमेन मनोरञ्जनं न कर्तुं सर्वान् अनुरुणद्धि। विस्फोटनानन्तरं निःसृतेन विषाक्त वायुना नेत्र चर्म प्राणवायु हृदय श्वास प्रश्वास सम्बद्धाश्च समस्याः सम्भवन्ति। त्यतः सावधानताम् अवलम्बितुं जनस्वास्थ्यविदः अनुरुन्धन्ति। स्पेन देशे जलविप्लवस्य कारणेन 95 जना मृताः, शतसु जना विलुप्ताश्च वर्तन्ते। पूर्वदिशः भ्यालेन्सिया प्रान्तस्य निकटवर्ती क्षेत्रेषु भीषण वृष्टेः पश्चात् दुरापन्नेन विप्लवेन एवं विनाशः सम्भूतोऽस्ति। जलविप्लवात् आत्मानं रक्षितुं जनाः उच्चभवनेषु वृक्षेषु च आरूढाः वर्तन्ते। प्रधानमन्त्री पेड्रो सांचेज उद्धारस्य प्रयास संचलद् अस्तीति भासमाणः त्रिदिवसीय राष्ट्रिय शोकस्य घोषणाम् अकरोत्। जलविप्लवेन मृतकानां संख्यायाः अतिरिक्तं वर्धनं सम्भवतीति स्थानीय संचार माध्यमैः ज्ञापितं वर्तते। दक्षिण फिलिपिन्स देशे सशस्त्र विद्रोही समूहस्य अग्रणीषु जनेषु सम्भूतेन विवादेन न्यूनतोपि 11 जना मृताः सन्ति। फिलिपिन्स विद्रोही समूहस्य मोरो इस्लामिक लिबरेशन फ्रण्ट इत्यस्य सदस्येषु सम्भूते विवादे ते जनाः मृताः सन्तीति फिलिपिन्स देशीय सेनया ज्ञापितं वर्तते। दशकेभ्य क्याथोलिक समूह बाहुलक फिलिपिन्स देश मुस्लिम नेतृत्वस्य पृथकतावादी हिंसात्मक विद्रोह ग्रस्तोऽस्ति। विद्रोहे लक्षादपि अधिका जनाः अधुनावधि मृताः सन्ति।